इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका मुदिता वेतालः। आदौ मुख्यवार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अवोचत् यत् यूनां शक्तिः शीघ्रमेव भारतं विकसित राष्ट्रं विधास्यति। छत्तीसगढ़स्य बीजापुर जनपदे अद्य सुरक्षा बलैः सह संघर्षे त्रयः माओवादिनः व्यापादिताः। इसरो इति भारतीय अंतरिक्ष अनुसंधान संस्थानेन उपग्रहद्वयं स्थिरीकर्तुं महत्वपूर्णं साफल्यं अवाप्तम्। आस्थायाः मानवतायाश्च महाकुम्भस्य शुभारम्भः श्वः उत्तरप्रदेशस्य प्रयागराजे भविष्यति। अपि च महिलानां क्रिकेट क्रीडायां भारत आयरलैंड दलयोः एकदिवसीय क्रिकेट श्रृंखलायाः द्वितीयस्पर्धा अद्य राजकोट नगरे प्रचलति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अवोचत् यत् यूनां शक्तिः शीघ्रमेव भारतं विकसित राष्ट्रं विधास्यति। राजधान्यां नवदिल्ल्यां भारत मण्डपे प्रधानमन्त्री नरेन्द्र मोदी एषमः विकसित भारत युवनेत्री संवादं सम्बोधयति स्म।
भारत की युवा शक्ति का सामर्थ्य भारत को जल्द से जल्द विकसित राष्ट्र बनाएगा। जब करोड़ों युवाओं की भुजाएं विकास रथ के पहिए को आगे बढ़ा रही है तो हम जरूर लक्ष्य पर पहुंच कर रहेंगे, क्योंकि मेरी आत्मा कहती है कि लक्ष्य बड़ा जरूर है लेकिन असंभव नहीं है।
श्री मोदी अवोचत् यत् भारतस्य युवशक्तिः महत्वपूर्णं परिवर्तनं विदधाति। राष्ट्रिय युव दिवसस्य अवसरे प्रधानमन्त्री विश्वासं प्रकटयत् यत् नवसन्ततयः युव च सर्वासां समस्यानां समाधानम् अन्वेषयन्ति। श्रीमोदी अवोचत् यत् महत्वपूर्ण लक्ष्य प्राप्तये समेषां देशवासिनां प्रतिभागिता समेकित प्रयासाः च आवश्यकाः। प्रधानमन्त्रिणा उक्तं यत् पूर्ण विकसित भारतं आर्थिकरूपेण सामाजिकरूपेण तार्किकरूपेण सांस्कृतिकरूपेण च समृद्धं भविष्यति। अमुना उक्तं यत् विगते दशके 25 कोट्याधिकाः जनाः निर्धनतातः समुत्थापिताः। प्रधानमन्त्री नरेन्द्र मोदी अवोचत् यत् सम्पूर्णं राष्ट्रम् अद्य स्वामी विवेकानन्दस्य स्मरणं करोति। स्वामी विवेकानन्दः युवभ्यः शाश्वत प्रेरणा वर्तते, तेभ्यः निरन्तरं शक्तिप्रदानं च करिष्यति। तेनोक्तं यत् प्रशासनं स्वामी विवेकानन्दस्य विकसित भारतस्य लक्ष्यप्राप्तये वचनबद्धं वर्तते। अस्य प्रमाणमस्ति चन्द्रयानस्य सफलता। इदानीं वयं गगनयानस्य सज्जतां कुर्मः। भारतं च 30,000 यावत् स्वकीयम् अन्तरिक्षकेन्द्रं स्थापयिष्यति। अवधेयं यत् त्रिदिवसीय विकसित भारत युवनेत्री संवादः शुक्रवासरे आरब्धः। अस्मिन् अवसरे श्रीमोदिना 30,000 युवनेतृभिः सह संवादो विहितः। अत्रावसरे प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रतिभागिभिः लिखिताः निबन्धाः अपि लोकार्पिताः। इमे निबन्धाः 10 लिखिताः सन्ति। देशे अद्य स्वामिनो विवेकानन्दस्य जयन्ती राष्ट्रिय युव दिवसः च आमान्यते। महान् आध्यात्मिक गुरवे दार्शनिक चिन्तकाय स्वामी विवेकानन्दाय राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च श्रद्धाञ्जलिः समर्पितः। एकस्मिन् सामाजिक सञ्चार पटले राष्ट्रपतिनोक्तं यत् स्वामिना विवेकानन्देन देशस्य महान् आध्यात्मिक सन्देशः पश्चिम जगति प्रचारितम्। येन भारतीय नागरिकेषु आत्मविश्वासः उत्पन्नः। तयोक्तं यत् स्वामी विवेकानन्देन युवानः राष्ट्रनिर्माणे मानवतायाः सेवायां च योगदानाय प्रेरिताः। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एयर चल दूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। आस्थायाः मानवतायाश्च महाकुम्भसंगमस्य शुभारम्भः श्वः उत्तरप्रदेशस्य प्रयागराजे भविष्यति। अस्मिन् भव्य आयोजने श्रद्धालुजनानां कृते सज्जता पूर्णा जाता। महाकुम्भे सम्मिलितुं बृहत्संख्यायां श्रद्धालवः प्रयागराजं प्रति गच्छन्ति। संस्कृतिमन्त्रालयेन प्रयागराजे कलाग्रामस्य निर्माणं कृतम्। अस्मिन् कलाग्रामे देशस्य समृद्ध जीवन्त संस्कृत्याः प्रदर्शनं भविष्यति। केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्र सिंह शेखावतः अद्य कलाग्रामस्य उद्घाटनं करिष्यति। छत्तीसगढ़े अद्य सुरक्षाबलैः सह संघर्षे त्रयः माओवादिनः व्यापादिताः। क्षेत्रे माओवादिनां गुप्तसूचना प्राप्तेः अनन्तरं सुरक्षाबलानां एकं संयुक्तदलं बीजापुरजनपदस्य नेशनल पार्क इत्याख्ये क्षेत्रे अन्वीक्षणरतम् अवर्तत। अद्य प्रातः अन्वीक्षणस्य समये संघर्षः प्रवर्तितः। सुरक्षाबलैः व्यापादितानां माओवादिनां वपुंसि अधिगतानि, ततः प्रबलमात्रायाम् आयुधानि विस्फोटकानि च प्राप्तानि। इसरो इति भारतीय अन्तरिक्ष अनुसन्धान संस्थानेन उपग्रहद्वयं स्थिरीकर्तुं महत्वपूर्णं साफल्यम् अवाप्तम्। इसरो इत्यनेन चेसर टार्गेट इति उपग्रहौ सुरक्षितदूरतायां स्थातुं सफलता प्राप्ता। अनयोः उपग्रहयोः कार्यं यदि सम्यक्तया पूर्णं भविष्यति चेत् भारतम् अमेरिका रूस चीन राष्ट्राणां पश्चात् चतुर्थः देशः भविष्यति यः स्वकीयम् अन्तरिक्ष केन्द्रं निर्मास्यति। विदेशमन्त्री डॉ एस जयशंकरः अमेरिकायाः नवनिर्वाचित राष्ट्रपतेः डोनाल्ड ट्रम्प इत्यस्य शपथ ग्रहण समारोहे भारतस्य प्रतिनिधित्वं करिष्यति। डोनाल्ड ट्रम्प इत्यसौ अमेरिकायाः 47वां राष्ट्रपतिः भविष्यति। अस्य मासस्य 20 दिने डोनाल्ड ट्रम्पः पद गोपनीयतायाः शपथं स्वीकरिष्यति। निज यात्रावधौ डॉ एस जयशंकरः नूतन प्रशासनस्य प्रतिनिधिभिः सह कार्यक्रमस्य सहभागिभिः अनगणमान्यजनैः च समम् अपि मेलनं करिष्यति। ऋतुविज्ञानविभागेन उक्तं यत् अद्य हिमाचलप्रदेशे राजस्थाने च शीतलहर्याः अनुमानं विद्यते। पंजाबे राजस्थाने हरियाणायां चण्डीगढ़े उत्तरप्रदेशस्य च कतिपय पूर्वभागेषु रात्रौ प्रातःकाले च कुञ्जटिकायाः संभावना वर्तते। हिमाचलप्रदेशे उत्तराखण्डे पश्चिमबंगालस्य गांगेयक्षेत्रे च सघन कुञ्झटिकायाः अनुमानम् अपि ऋतुविज्ञानविभागेन प्रकटितम्। हॉकी क्रीडायां महिला हॉकी इंडिया लीग इति स्पर्धा मालिका अद्य आरभते। श्रृंखलायां प्रथमस्पर्धायां अद्य दिल्ली एसजी पाइपर्स इति दलं ओडिशा वॉरियर्स अनेन दलेन सह स्पर्धिष्यते। प्रतियोगितायाः औद्घाटनिका स्पर्धा रांची नगरे क्रीडिष्यते। इति वार्ताः।